श्री चैतन्य मनोऽभीष्टम् स्थापितं येन भूतले स्वयं रूपपरायणं ददाति